धर्ता दिवः पवते कृत्यो रसो दक्षो देवाना मनवाद्यो नृभिः हरिस्रजानो अद्यो न सत्त्वभिर्वृथापाजांसि कृणुते नदीष्वा शूरो न धत्त आजुधा गभस्त्यो स्वा अस्य शा सन्दधिरो गविष्टिषो इन्द्रस्य शुष्मभिरजम् नपस्यभिरिन्दुर्हिन्वानो अद्यते मनीषिभिः इन्द्रस्य सोमपवमान ऊर्मिणा आदविष्यमाणो जठरेष्वाविशा व्रणः पिण्ड विद्युदभ्रे वरोदसे धिया न वाजाङ्कुपमासि शश्वतः विश्वस्य राजा भवते स्वर्दृशरुदस्य धेति मृषिषाणमेव शत यस्योर्यस्यासिरेण मृज्यते विदामदेनाम समष्टकाव्यः वृषेव ज्योथापरिकोशमर्षस्य पापवस्थे वृषभः करिक्रदत स इन्द्राजपवसे मत्सरिन्दमोजधाजेशा वसमिधे त्वोदयः